श्रीकामाक्षि तवस्मितद्युतिजरि वैदद्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षि मोदयनिधेः किञ्चिद्भिदां ब्रूमहे एकस्मै पुरुषाय देवि सददौ लक्ष्मीं कदाचित् पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् श्रीकाञ्चीपुररत्नदीपकलिके तान्येव मेनात्मजे चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे कम्पातीरकुटुम्बचङ्क्रमकला चुञ्चूनि चञ्चूपुटैः नित्यं यानि तव स्मितेन्दुमहसाम् आस्वादमातन्वते शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन् निर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् लीलालापपुरःसरोऽपि सततं वाचं यमान् प्रीणयन् कामाक्षि स्मितरोचिषां तव समुल्लासकथं वर्ण्यते श्रोणी चञ्चलमेखलामुखरितं लीलागतं मन्थरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणं यद्वैदग्ध्यमुखेन मल्मथरिपुं सम्मोहयन्त्यञ्जसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नमस्कुर्महे।